तस्य नूनम् कदमस्यामृतानाम् मनामहे चारु देवस्य नाम कोलामह्यादितये पुनर्दात् पितरम् च दृशेयम् मातरम् च अग्नेर्वयम् प्रथमस्यामृतानाम् मनामहे चारु देवस्य नाम मह्यादितये पुनर्दात् पितरम् दृशेयम् मातरम् च अभिद्वा देवसवितरीशानम् वार्याणाम् सदा बन्धागमीमहे यच्छिद्धित युद्धभगस्व समानः पुराणिनः अग्नेणो हस्तायोर्दधे भगभक्तस्य ते वयमुदासे मतमावासा मूर्धानम् राज आरभे न हि ते क्षत्रम् न दहो न मन्यम् वयश्च रामी पतयन्त द आपोः नेवापोरिमिषम् चरन्तीर्णयेवादस्य प्रविनन्त्यध्वम् अबुध्ने राजावरो नो मनस्योध्वम् स्तूपम् ददते भूतदक्षः दीयास्वरुपरि भुद्रयेणापस्मे अन्तर्निहिताः केतवस्योः पुरम् विराजावरुणश्चकारसूर्यायपन्थामन्वेतवावो अपदेवादा प्रतिधातवे करुतापवत्ता हृदया विधश्चित् सदन्दे राजन् भिषजः सहस्रमुर्मीकभीरासो मतिष्ठे अस्तु बाहस्वदूरे निर्देशिम्बराजे कृतम् जिनेन प्रमोमुध्यस्मत् अमीयरक्षानिहीदास उच्चानक्रन्दृश्रे गुहाधिद्धिवेजुः अदब्धानि वरुणस्य व्रतानि विजागासश्चन्द्रमानत्तमेति तत्त्वाया विब्रह्मणावन्दमानस्तदास्ते यजमानो हविर्भिः अहेलमानो वर्णेह बोध्यरोदम् समानाय प्रमोषीः तदिन्नट्टम् दद्धि वामह्यमाहस्तदयम् केतो हृदा विचष्टे सुनस्ते भोजमह्वगृहीतः सो अस्मान् राजा वरुणो मुमोक्तो सुनस्ते भोह्यह्वगृभीतस्तृष्वा नित्यम् द्रौपदेषु बद्धः अमीयम् राजा वरुणस्य सृज्याद्विद्वाङ्गलभ्यो विमोक्तुपासान् अवदेहेलो वरुणनमोऽभिनवयज्ञेभिरीमहे हविर्भिः क्षयन्नस्मभ्यमचलप्रदेताराजन्मेनाम् शिशिस्वतः कृतानि उदत्तमम् वरुणपाशमस्मदवाधमम् विमध्यमम् श्रथाय अथा वयमादित्यम् रतेतवानागसो अधीतये स्याम।